अभूज्जग्निः सनिधानानाम् प्रतिधेनुमीवायतीमुषासम् जह्वायैव प्रभजामुज्जिहानाः प्रभानवशिस्रतेन कमच्छ अभोधिहोता यजथाय देवानूर्ध्वो अग्निः सुमनाः प्रातरस्थात् समिद्धस्य रुषदर्शिवायो महान् देवस्तमासो निरामोचि यदीम् गणस्य रसनामजी कस्ुचिरम् केशुचिभिर्गोभिरग्निः आद्यक्षीणायुज्यते वा जयन्त्युत्थानामूर्ध्वो आधयद्युगोभिः अग्निमच्छा देवगतामनाम् श्रिचक्षूंषि वसूर्ये सञ्चरन्ति यदीम् सुवा देवुषसाविरूपे श्वेतो भाजी जायते अग्रे अह्नाम् जनिष्टैजेऽन्यो अग्रे अह्नाम् हितो हितेष्वरुषो वनेषु दमे दमे सप्तरत्नादधानोऽग्निर्होतानिषसाताजीयान् अग्निर्होतान्यसीदत्यजीयानुपस्थे मातुः सूरभावु लोके युवा कविः पूर्वनिष्ठरुता वा धत्ता कृष्टीनामुतमध्य युद्धः प्रणत्यम् विप्रामध्वरेषु साधुमग्निम् होता रमेण ते नमोभिः आयस्तता नरोदसीलतेन नित्यम् मृजन्ति वाजिनम् धृतेन माजाल्यो मृज्यते स्वेदमूनाः कविप्रशस्तो अतिथिः शिवोराः सहस्रशृङ्गो वृषभस्ततो जा विश्वाङ्गग्ने सहसाप्यास्यन्याने सद्यो अग्ने अत्येष्यन्यानाभिर्यस्मै चारुतमो बभूथ ेण्यो वपुष्यो विभावाः प्रियो विषामति धर्मानुषीणाम् तुभ्यम् भरम् दीक्षितयो यविष्ठबलिगणे अन्ति तवोतधूरात् आबन्धिष्ठस्य सुमतिम् चिगिद्धि बृहत्ते अग्ने महि शर्म भद्राम् आद्यरथम् भानुमो भानुमन्तमग्ने तिष्ठ जगतेभिः समन्तम् विद्वान् पधीनामुर्वान्तरिक्षमेह देवान् हविरद्याय वक्षि अवोचामकवये मेध्याय वचो बन्दारो वृषभाय वृष्णे यविष्ठिरो नमसा स्तोममग्नौ दिवीव रुक्ममूर्व्यम् च मश्रेत्